आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। वित्तमन्त्री निर्मला सीतारामन् इत्येषा अद्य लोकसभायां 25-2026 अर्थसंकल्पनापत्रं प्रस्तोष्यति। इदं हि नरेन्द्रमोदी प्रशासनस्य तृतीय कार्यकालस्य अर्थसंकल्पनापत्रं भविष्यति इति। अस्मात् पत्र प्रस्तुतीकरणात् पूर्वं ह्यः संसदः उभयोः सदनयोः आर्थिक सर्वेक्षणं प्रस्तुतम्, यस्मिन् अर्थव्यवस्थायाः प्रदर्शनानि अवलोकितानि। 19-2000 वर्षे पदभारग्रहणानन्तरं वित्तमन्त्रिणः निर्मला सीतारामन् इत्येतस्याः इदं हि सततम् अष्टमम् अर्थसंकल्पनापत्रं भविष्यति। लोकसभायां पत्रस्य प्रस्तुतेः अनन्तरं अर्थपत्रस्यास्य एका प्रतिः राज्यसभायामपि प्रस्तोष्यति। आयव्ययपत्रात् पूर्वं एकस्मिन् परामर्शोपवेशनावधौ वित्तमन्त्रिणा कृषकसंघैः, कृष्यर्थशास्त्रिभिः, उच्चक्षेत्राणां प्रतिनिधिभिः, हितधारकैः च सह उपवेशनानि विहितानि। अस्य अर्थसंकल्पनापत्रस्य प्रथमः भागः फरवरी मासस्य 13-दिनांकपर्यन्तम् अथ च द्वितीयः भागः मार्च मासे 10-दिनांकतः अप्रैल मासस्य 4-दिनांकं यावत् प्रचलिष्यति। उपराष्ट्रपतिः जगदीप धनखड़ः अद्य प्रयागराजं महाकुम्भं प्रति यास्यति। तत्रासौ संगमे आस्थावगाहनं करिष्यति। अस्माकं वार्ताहरः सूचितवान् यत् दिव्यः भव्यः च महाकुम्भः वैश्विकध्यानम् आकर्षयति। विविधदेशानां राजनैकाभियानानां प्रमुखाः अपि अद्य महाकुम्भं प्रति आयान्ति। अस्य वर्षस्य महाकुम्भेन भारतस्य बृहत्तमस्य अनुष्ठानस्य रूपेण स्वस्थानं प्रतिष्ठितम्। प्रथमवारं 73 राजनीतिज्ञाः अद्य गंगा, यमुना, सरस्वती नदीनां पुण्ये पवित्रे च संगमे पुण्यावगाहनाय प्रयागराजं प्रति आगच्छन्ति। एते जनाः अक्षयवटं, बड़े हनुमान मन्दिरं चापि प्रति दर्शनार्थं गमिष्यन्ति। तदनु डिजिटल महाकुम्भ एक्सपीरियंस इत्येतस्मिन् स्थापिते केन्द्रे आधुनिक प्रणाल्याः माध्यमेन महाकुम्भस्य महात्म्यम् अवलोकयिष्यन्ति। नवदिल्ल्याः भारत मण्डपे अद्यारभ्य नवदिल्ली विश्वपुस्तक मेलकं समारप्स्यते। अस्मिन् वर्षे मेलकस्य शीर्षको विद्यते वयं भारतस्य जनाः, भारतस्य गणतन्त्रस्य 75 उत्सवः इति। नवदिवसात्मकस्य अस्य मेलकस्य उद्घाटनं राष्ट्रपतिना द्रौपदी मुर्मू इत्यनया विधास्यते। आकाशवाण्या सह वार्तालापं कुर्वन् राष्ट्रिय पुस्तक न्यासस्य निदेशकः युवराज मलिकः सूचितवान् यत् अस्मिन् वर्षे मेलकस्य अस्य प्रमुखः रूसदेशो विद्यते, तथा च 50+ देशाः भागं भजिष्यन्ति। एतस्मिन् मेलके भूयोपि 2000 यावत् प्रकाशकाः, 1000 यावच्च वक्तारः सम्मिलिताः भविष्यन्ति। भारतीय रिजर्व बैंक इत्यनेन प्राप्तस्य नवीनतमस्य दत्तांशस्य अनुसारं भारतस्य वैदेशिक मुद्रा संचयः 5.57 बिलियन डॉलर मितात् 29.55 बिलियन डॉलर परिमितं यावत् जनवरी मासस्य अन्तिमे सप्ताहे संवर्धितः। वैदेशिक मुद्रा सम्पत्तौ महत्वपूर्णः लाभः जातः, यो हि संचयस्य प्रमुखः घटकः आसीत्। पुरुषाणां क्रिकेट क्रीडायां ह्यः रात्रौ पुणे नगरस्य महाराष्ट्र क्रिकेट एसोसिएशन क्रीडाङ्गणे 24:20 इत्येतस्मिन् अन्ताराष्ट्रिय द्वन्द्वे भारतेन इंग्लैण्डदलं 15 पराजितम् इति वार्ताः।